वन्नगन्धगुणोपेतं येतं कुसुमसन्तति पूजयामि मुनिन्दस्स श्रीपादसरोरुहे उजेमि बुद्धं कुसुमेन नेन व्येन मे तेन लभामि मुखं पुफं मिलायति यथा इदं मे कायो तथा याति विनाशभावं